नमस्कारः। अद्य मृतसञ्जीवननाटकस्य चतुर्थम् अङ्कं पठामः। ततः पूर्वं तृतीयाङ्कस्य कथा संक्षेपेण।
आम्, तृतीयोऽङ्कः शुक्रस्य आश्रमप्रदेशः आसीत्। शुक्राचार्यः वेदमधीयानः तस्मिन् आश्रमे तिष्ठति। तदा कचकुमारः प्रविशति। शुक्रः कचं दृष्ट्वा गतबालभावः असौ इदानीमेव प्राप्तयौवनः असौ इद एव आगच्छति इत्येवं भाति। किमर्थं सः अत्र आगच्छति इति तस्य मनसि वर्तते। तदा कचः समीपमागत्य शुक्राचार्यस्य अभिवादनं करोति। शुक्राचार्यः आशीर्वादं दत्त्वा तस्य विनयप्रकटनेन सन्तुष्टः सन् तस्य कुशलं पृच्छति। तस्य आगम सः
कारणं
सः कः इत्यपि पृच्छति। कचः स्वस्य
आत्मानं परिचाययति
कचः बृहस्पतेः पुत्रः अहम् इति। तथैव बृहस्पतेः नमस्कारान् तथैव कुशलप्रश्नाञ्च निवेदयति कचः। ततः परं किमर्थं भवतः आगमनम् अत्र इति शुक्राचार्यः कचं पृच्छति। तदा कचः विद्यामर्थयितुम् अत्र आगतः अहम् इति वदति कचः। शुक्राचार्यस्य आश्चर्यं जनयति असौ विषयः, यतः बृहतां पतिः वाचां पतिः तस्य पिता, कचस्य पिता तु वाचां पतिः, किन्तु सः विद्यामर्थयितुं शुक्रस्य समीपे मम समीपे कचं प्रेषयति इति तस्य आश्चर्यं भवति। ततः कचः बृहस्पतेः हृदयं वदति यत् पितुः अपेक्षया अन्यस्मिन् गुरौ यदि विद्याग्रहणं भवति तदा सा विद्या आरूढा भवति इति पितॄणाम् आशयः इति वदति कचः। ततः शुक्राचार्यः बृहस्पतेः तादृशम् अभिलाषम् अभिनन्द्य कचं कां विद्याम् अध्येतुं कचः अत्र आगतः इति पृच्छति। कचः यत् शुक्राचार्याय यो रोचते तद् अध्येतुम् इच्छामि इति वदति। ततः शुक्राचार्यः वदति
यस्मिन् विषये आसक्तिः अस्ति, अनन्तरं यस्मिन् विषये जन्मान्तरवासना अपि अस्ति, एतत् उभयम् अस्ति चेत् तस्मिन् विषये एव सः शिष्यः शिक्षणीयः गुरुणा, तादृशी शिक्षा एव आरूढा भवति इति वदति। उभयमपि आसक्तिः अपि आवश्यकी, जन्मान्तरवासना अपि आवश्यकी, एतद्वयमपि भवेत्
इति वदति शुक्राचार्यः। कचः शुक्राचार्यस्य सूक्ष्मज्ञतां दृष्ट्वा आश्चर्यान्वितः सः सङ्गीतविद्याम् अध्येतुम् इच्छति इति वदति सः। ततः शुक्राचार्यः कचम् अत्रैव भवतु इति गुरुकुलवासाय तं प्रेषयति। तस्य प्रवृत्तिं च द्रष्टुम् इच्छति शुक्राचार्यः। कचः मनसि
स्थानं लब्धम् इति तुष्टः।
तृतीयोऽङ्कः समाप्तः।
इदानीं चतुर्थम् अङ्कं पठामः। चतुर्थाङ्कस्य आरम्भे वृषपर्व आगच्छति। वृषपर्वणः सभा अस्ति। वृषपर्व इति असुराणां राजा वृषपर्व इति नामकः। वृषपर्वण् शब्दः वृषपर्व आत्मन् शब्दवत्, वृषपर्व वृषपर्वाणौ वृषपर्वाणः इति आत्मशब्दवत् भवति। वृषपर्व इदानीं रङ्गमञ्चं प्रविशति। तेन सह तस्य अमात्यः अपि आगच्छति। अमात्यः वदति, जयतु जयतु आहवक्षोणिविक्षोभितविपक्षः वृषपर्व रक्षोधिनाथः। रक्षोधिनाथः वृषपर्व जयतु रक्षोधिनाथः रक्षसाम् अधिनाथः। अधिनाथः इत्युक्ते राजा इति अर्थः। रक्षसां राजा नाम राक्षसानां राजा वृषपर्व जयतु। पुनः कीदृशः वृषपर्व इत्युक्ते आहवक्षोणिविक्षोभितविपक्षः। आहव इत्युक्ते युद्धं, क्षोणि इत्युक्ते भूमिः। आहवक्षोणि इत्युक्ते युद्धभूमिः अथवा युद्धक्षेत्रम्। युद्धक्षेत्रे विक्षोभिताः विपक्षाः येन सह, युद्धक्षेत्रे विक्षोभिताः विपक्षाः, विपक्षः इत्युक्ते शत्रुः, शत्रवः विक्षोभिताः प्रापिता विक्षोभनं प्रापिताः विक्षोभिताः शत्रवः नाम अजिटेटेड् शत्रवः युद्धक्षेत्रे यस्य अस्ति सः आहवक्षोणिविक्षोभितविपक्षः भवति विक्षोभिताः इत्युक्ते अजिटेटेड् अथवा शेकन् अजिटेटेड् अथवा शेकन् वृषपर्वणः विपक्षाः नाम शत्रवः युद्धक्षेत्रे क्षोभिताः भवन्ति इति ज्ञायते नाम तावत् शूरः अस्ति वृषपर्व इति अर्थः शत्रून् क्षोभयति स्म वृषपर्व नाम शत्रून् अजिटेटेड् करोति सः अजिटेशन् कारयति शत्रूणाम् इति तादृशः वृषपर्व रक्षसाम् अधिनातः रक्षसां राजा एषः जयतु इति वृषपर्व अमात्यं पृच्छति अमात्यवर अपि नाम जिता सर्वे सुपर्वाणः सुपर्वाणः इति देवाः इति अर्थः सुपर्वा सुपर्वाणौ सुपर्वाणः इति नकारान्तः पुल्लिङ्गशब्दः आत्मशब्दवत् सुपर्वाणः देवाः सर्वे जिताः किम् अपि इति अत्र प्रश्नार्थकम् अव्ययं प्रश्नार्थे प्रयुज्यमानम् अव्ययम् अपि इति पदं प्रश्नार्थकमपि बोधयति सर्वे देवाः जिताः किम् वयं सर्वान् देवान् जितवन्तः वा इति पृच्छति अमात्य न हि निःशेषं जिताः न निःशेषं जिताः निःशेषं न जिताः इतोपि अवशिष्टाः देवाः सन्ति नाम अवशिष्टं विना देवान् वयं न जितवन्तः इतोपि देवाः अवशिष्टाः सन्ति सर्वान् वयं न जितवन्तः सर्वान् देवान् न जितवन्तः इति अर्थः वृषपर्व पृच्छति बहुवारं प्रचलिते अपि संयुगे पुनः उपजीवितेषु अस्माकं बलेषु द्वेषिणो न निःशेषीकृताः इति मे महत् आश्चर्यं जनयति वृषपर्व वदति मम बहु आश्चर्यम् अस्ति कस्मिन् विषये मम आश्चर्यम् अस्ति इत्युक्ते बहुवारं प्रचलिते अपि संयुगे संयुगम् इत्युक्ते युद्धम् इति अर्थः संयुगः इति युद्धम् इति अर्थः संयुगे युद्धे तद् कीदृशे युद्धे बहुवारं प्रचलिते अपि संयुगेन बहुवारं युद्धं कुर्मः वयम् एवं बहुवारं प्रचलति देवैः सह अस्माकं युद्धं तादृशे युद्धे पुनः उपजीवितेषु अस्माकं बलेषु अस्माकं बलं नाम सैन्यम् अस्माकं सैनिकाः सर्वे अपि पुनः पुनः मृतसञ्जीवनी मन्त्रेण उपजीविताः सन्ति तथापि द्वेषिणः न निःशेषीकृताः द्वेषिणः अत्र शत्रवः द्वेषी द्वेषिणौ द्वेषिणः शत्रवः निःशेषी न कृताः निःशेषीकृताः न निःशेषीकृताः नाम निःशेषं न जिताः वयं शत्रून् निःशेषं न जितवन्तः इति विषयः मम बहु आश्चर्यं जनयति कारणं बहुवारं वयं बहुकालात् युद्धं कुर्मः पुनः पुनः अस्माकं सैनिकाः उपजीवयन्तः भवन्ति शुक्राचार्यस्य मन्त्रबलेन तथापि कथं देवाः निःशेषीकृताः कारणं देवानां पक्षे तु मृतसञ्जीवनं नास्ति मृताः तु मृताः एव अतः कथम् एतत् साध्यम् कथम् एतावत् पर्यन्तं देवाः न निःशेषीकृताः इति मम बहु आश्चर्यम् अस्ति इति तदा अमात्यः वदति तस्य कारणं किमर्थं देवाः न निःशेषीकृताः इति देवाः निःशेषं न जिताः इत्यस्य कारणं वदति अमात्यः श्रूयतां महाराज
बाहादर्पविसर्पिभिः
तव बलैः
कूर्पासरेणुक्षमं
विक्षिप्ताः परिपन्थिनः क्रतुभुजः संख्येत्वसंख्यं त्रयः
त्रिंशत्कोटिषु तत्तथापि बलभिन् मुख्यादिगीषास्वयं
नासीराण्यभिचोदयन्ति नितरा
अक्षय्यजय्यक्रमैः अमात्यः इदानीं वदति बाहादर्पविसर्पिभिः तव बलैः कूर्पासरेणुक्षमं विक्षिप्ताः परिपन्थिनः क्रतुभुजः संख्ये तु असंख्यं त्रिंशत् कोटिषु त्रयस्त्रिंशत् कोटिषु तत्तथापि बलभिन्मुख्याः दिगीशाः स्वयं नासीराणि अभिचोदयन्ति नितराम् अक्षय्यजयक्रमैः इति एकं पदम् अक्षय्यजयक्रमैः तव बलैः तव नाम अत्र वृषपर्वणः भवतः बलैः संख्ये संख्यम् इत्युक्ते युद्धम् इति युद्धे असंख्यं त्रयस्त्रिंशत् कोटिषु त्रयस्त्रिंशत् कोटिदेवाः सन्ति इति वयं जानीमः त्रयस्त्रिंशत् कोटिषु देवेषु असंख्यं विक्षिप्ताः असंख्यकाः देवाः विक्षिप्ताः नाम पीडिताः दूरीकृताः हताः इत्यपि अर्थं स्वीकर्तुं शक्यते एवं भवति तव बलैः त्रयस्त्रिंशत् कोटिषु त्रयस्त्रिंशत् कोटिसंख्याकदेवेषु असंख्यं विक्षिप्ताः देवाः असंख्यकाः देवाः दूरीकृताः कीदृशैः बलैः इति बलैः इति पदस्य एकं विशेषणमस्ति बाहादर्पविसर्पिभिः बलैः तव बलं कथमस्ति इत्युक्ते बाहा इति पदस्य बाहु इति अर्थः हस्तः बाहादर्प नाम बाहूनां दर्पं दर्पः इत्युक्ते गर्वं नो चेत् बलं बाहूनां बलं विसर्पिभिः सो बाहूनां गर्वं विसर्पिभिः विसर्पिभिः इत्युक्ते प्रदर्शिभिः ये प्रदर्शयन्ति बाहूनां गर्वं प्रदर्शयन्तः सन्ति तव बले विद्यमानाः असुराः तादृशैः बाहादर्पविसर्पिभिः बाहूनां दर्पं प्रदर्शयद्भिः तव बलैः तव सैन्यैः त्रयस्त्रिंशत् कोटिषु अमङ् इति अर्थे सप्तमी विभक्तिः अत्र त्रयस्त्रिंशत् कोटिषु असंख्यं संख्ये संख्यम् असंख्यम् इति शब्दालङ्कारस्य प्रयोगः दृश्यते संख्ये युद्धे क्रतुभुजः क्रतुं भुनक्ति इति क्रतुभुक् क्रतुभुजौ क्रतुभुजः इति देवाः क्रतुभुजः कीदृशाः क्रतुभुजः परिपन्थिनः परिपन्थिन् शब्दः नाम प्रतिपक्षः शत्रवः इति अर्थः परिपन्थी परिपन्थिनौ परिपन्थिनः सो असंख्यं क्रतुभुजः परिपन्थिनः विक्षिप्ताः इति बलैः इति शब्दस्य बाहादर्पविसर्पिभिः इति एकं विशेषं क्रतुभुजः इति शब्दस्य परिपन्थिनः विक्षिप्ताः इति पदद्वयं भवति एवं त्रयस्त्रिंशत् कोटिषु असंख्यं विक्षिप्ताः देवाः विक्षिप्ताः कथं विक्षिप्ताः इति चेत् कूर्पासरेणुक्षमं विक्षिप्ताः कूर्पासरेणुक्षमम् इत्युक्ते कूर्पास इत्युक्ते सम्मार्जनी इति अर्थः अत्र स्वीक्रियते सम्मार्जन्यां विद्यमानः रेणुः कथं क्षिप्तः भवति रेणुः इति पदस्य परागः परागः आङ्ग्लभाषायां
डस्ट्
सो सम्मार्जन्यां विद्यमान तत् डस्ट् परागः कथं क्षिप्तः भवति तथा देवाः बहवः युद्धे क्षिप्ताः सन्ति अस्माकं युष्मा तव बलैः इति वदति अनन्तरं तत् तथापि यद्यपि बहवः देवाः विक्षिप्ताः सन्ति युद्धे तथापि बलभिन्मुख्याः दिगीशाः दिक्पालाः दिशाम् ईशः दिगीशः दिक्पालकाः बलभिन्मुख्याः बलभिन्मुख्याः दिगीशाः नाम बलभित् इति इन्द्रस्य अपरं नाम सो इन्द्रन् इन्द्रप्रभृति दिगीशाः इन्द्रन् अन्ये इन्द्रः अन्ये दिक्पालकाः सर्वे स्वयम् आगत्य स्वयं नासीराणि अभिचोदयन्ति अभिचोदनं नाम प्रेरयन्ति मोटिवेटिङ्ग् नासीराणि इत्युक्ते सेना इति अर्थः नासीराणि अभिचोदयन्ति कथम् अभिचोदयन्ति कथं प्रेरयन्ति इत्युक्ते अक्षय्यजयक्रमैः அக்ஷய ஜெயக்ரமஹ ஜெயகோஷனைஹி சர்வதா இந்திராஹ அன்யே திக்பாலகாஹ சாக்ஷாத் ஆகத்ய தேஷாம் சைன்யானி அக்ஷய ஜெயக்ரமைஹி ஜெயகோஷனைஹி தே சம்யக் பிரேரயந்தி கிந்து பவந்தஹ ருஷபர்வ அன்ய முக்கிய அசுராஹ யே சந்தி அஸ்மாகம் பலே தே சாக்ஷாத் யுத்தக்ஷேத்ரம் ஆகத்ய அஸ்மாகம் உற்சாகம் ந குருவந்தி இது அமாத்தியஹ இன்டைரக்டா வததி விருஷபர்வானம் அஸ்ய ஸ்லோகஸ்ய அன்வயஹ ஏவம் பவதி வாஹாதர்ப விசர்ப்பிபிஹ தவ பலைஹ சங்கே நம யுத்தே த்ரயஸ்த்ரிம்ஷத் கோடிஷு பரிபந்தினஹ க்ரதுபுஜஹ கார்பாஸ ரேணுக்ஷமம் அசங்கியம் விக்ஷிப்தாஹ அசங்கியம் இது பதம் அத்ர க்ரியா விசேஷணத்வேன ப்ரயுஜ்யதே நம அட்வர்ப் தத்தாபி பலபின் முக்கியா திகீஷாஹ ஸ்வயம் நாசீராணி அக்ஷய நிதராம் அக்ஷய ஜெயக்ரமைஹி அபிசோதயந்தி நாசீராணி சேனாம் நிதராம் அத்தியதிக ஜெயக்ரமைஹி ஜெயகோஷணைஹி நிதராம் பிரேரயந்தி திகீஷாஹ சர்வே திக்பாலகாஹ சர்வே கிந்து பவந்தஹ ந ஆகச்சந்தி இதி வததி அமாத்யஹ வ்ருஷபர்வ அமாத்ய புன சஞ்சீவனம் அனுஸ்மிருத்ய ஸ்லதயந்தீவ பௌருஷம் அஸ்மத் பட்டாஹ பரிபந்தினோ விஜ்ருபந்த இவ ஏதத் கத்யதாம் வருஷபர்வ வததி ஹே அமாத்ய புனஹ சஞ்சீவனம் அனுஸ்மிருத்ய இத்யுக்தே இதானிம் அசுராஹ சர்வே ஏவம் சிந்தயேயுஹு அஹம் மரணம் வயம் மரணம் பிராப்னுமஹ சேதபி புனஹ சுக்ராச்சாரியஹ மிருத சஞ்சீவன்யா அஸ்மான் உஜ்ஜீவயதி இதி அனுஸ்மரணம் அஸ்தி தேஷாம் மனசி ஏவம் மிருத சஞ்சீவனம் அனுஸ்மிருத்ய சிந்தயித்வா ஸ்லதயந்தி இவ பௌருஷம் பௌருஷம் ஸ்லதயந்தி இவ அஸ்மத் பட்டாஹ அஸ்மத் சைனிகாஹ பட்டஹ நாம சைனிகாஹ பௌருஷம் பிரயத்னம் ஸ்லதயந்தி நாம சிதிலீகுர்வந்தி
உச்சிதம் பிரயத்னம் ந பிரதர்ஷயந்தி
லூசனிங் தேர் எஃபர்ட்ஸ் இதி பரிபந்தினஹ விஜ்ருபந்த இவ அத்தஹ பரிபந்தினஹ விஜ்ருபந்த நாம வர்தமானாஹ சந்தி பிரதிபக்ஷாஹ சத்ரவஹ வர்தமானாஹ இவ த்ருஷ்யந்தே ஏதத் கத்யதம் ஏதத் பவான் வதது
சங்க்ரந்தனக்ரந்தனவிக்ரமாட்யாஹ
கிருதாந்ததாந்தீகரணோக்ரதந்தாஹ
பாஷாயுதக்லேஷகரப்ரகாஷாஹ
ந சந்தி கிம் இதி பிருச்சதி ருஷபர்வா அமாத்யம் சங்க்ரந்தனஹ சங்க்ரந்தனஹ துஷ்சவனஹ இதி இந்திரஸ்ய நாம சங்க்ரந்தனஸ்ய க்ரந்தனம் நாம சங்க்ரந்தனஸ்ய க்ரந்தனம் கர்த்தும் அலர வைக்கிறது இதி வதாமஹ கிள தமேவ க்ரந்தனம் இதி ஏவம் சங்க்ரந்தனம் க்ரந்தயிதும் சங்க்ரந்தனம் க்ரந்தயிதும் விக்ரமாட்யாஹ விக்ரமயுக்தாஹ விக்ரம சம்பன்னாஹ அஸ்மாகம் பலே ந சந்தி கிம் இது கிருதாந்த தாந்தி கரணோக்ரதந்தாஹ உக்ரதந்தாஹ ந சந்தி கிம் உக்ரதந்தாஹ உக்ரம் தந்தம் உக்ராஹ தந்தாஹ ஏஷாம் சந்தி தே உக்ரதந்தாஹ கிமர்த்தம் உக்ரதந்தாஹ பவேயுஹ இத்யுக்தே கிருதாந்த தாந்தி தாந்தீகரண உக்ரதந்தாஹ கிருதாந்தஹ நாம யமஹ தாந்தி ஶ்ராந்திஹி இதி அர்த்தஹ சோ கிருதாந்தம் தாந்தி கர்த்தும் நாம கிருதாந்தஸ்ய ஶ்ரமம் காரயிதும் கிருதாந்தஹ யமஹ யதா ஶ்ரமம் அனுபவதி ததா கர்த்தும் உக்ரதந்தாஹ அஸ்மத் பலே ந சந்தி கிம் இதி பிருச்சதி புனஹ பாஷாயுத க்லேஷகர பிரகாஷாஹ பாஷாயுதஹ வருணஹ வருணஸ்ய க்லேஷ க்லேஷம் யதா பவதி ததா கர்த்தும் ஸ்வபராக்ரமம் பிரதர்ஷயிதும் ப்ரூரூக்ஷாஹ அதிபயங்கராஹ அஸ்மாகம் பலே ந சந்தி கிம் இதி பிருச்சதி அத்ர அன்வயஸ்ய ஆவஸ்யகதா ஏவ ந ஸ்யாத் அஸ்மின் ஸ்லோகே சங்க்ரந்தன க்ரந்தன விக்ரமாட்யாஹ க்ருதாந்த தாந்தி கரணோக்ரதந்தாஹ பாஷாயுத க்லேஷகர பிரகாஷாஹ रक्षोभले नाम रक्षसां सैन्ये रक्षसां सेनायां प्ररूक्षाः न सन्ति किम् एतादृशाः समर्थाः अस्माकं
सेनायां न विद्यन्ते
न वर्तन्ते किम् इति पृच्छति अमात्यः सन्ति महाराज सन्ति सन्ति एव एतादृशाः प्ररूक्षाः भयङ्कराः वयं भयङ्कराः अस्माकं बले सन्ति एव तथापि शत्रूणां निःशेषणं दुस्साधम् इव दृश्यते तथापि शत्रूणां नाम
देवेषां
देवानां निःशेषणम् अशेषं देवान् जेतुं तत्तु किञ्चित् असाध्यमिव दृश्यते दुस्साधं नाम असाध्यमिव दृश्यते वृषपर्व बत दुस्साधं न साध्यमिति वदति किम् रणाङ्गणे रिपोशेषम्
रणाङ्गणे रिपोशेषम्
ऋणशेषम् गृहाङ्गणे
ऋणशेषम् गृहाङ्गणे
तद्वयं मनसः शल्यम्
तद्वयं मनसः शल्यम्
अनुधृत्य कुतः सुखम्
अनुधृत्य कुतः सुखम्
वृषपर्वा वदति रणाङ्गणे रिपोः शेषम् ऋणशेषम् गृहाङ्गणे तद्वयं मनसः शल्यम् अनुधृत्य कुतः सुखम् रणाङ्गणे नाम युद्धक्षेत्रे रिपोः शेषं रिपुः शत्रूणां शेषः न भवेत् युद्धक्षेत्रे शत्रवः निःशेषं जेतव्याः रणाङ्गणे युद्धक्षेत्रे शत्रूणां शेषः न भवेत् गृहाङ्गणे गृहेषु ऋणशेषं न भवेत् ऋणम् इत्युक्ते डेट्स् कडन् इति वदामः तस्य शेषं न भवेत् ऋणस्य शेषं गृहेषु न भवेत् एतद्वयं कथं भवति मनुष्यस्य मनसि शल्यम् इव भवति शल्यं कण्टकः एनिथिङ्ग् दट् इस् शार्प् शल्यं सम् शार्प् इव भवति शार्प् एतद्वयं किं द्वयं युद्धक्षेत्रे शत्रोः शेषं गृहेषु ऋणस्य शेषम् एतद्वयमपि मनसः शल्यवत् कण्टकवत् भवति सर्वदा मनः पीडयति एतद्वयमपि शल्यवत् पीडयति कण्टकः यथा वेदनां जनयति तथा एतद्वयमपि वेदनाजनकं भवति अनुधृत्य कुतः सुखं मनुष्यस्य सुखं न भवति यदि एतद्वयमपि न उद्ध्रियते चेत् सो अनुधृत्य अनुत्पाट्य न उत्पाट्य न उद्धृत्य अनुधृत्य एतद्वयमपि न निवार एतयोः निवारणं न क्रियते चेत् सुखं कुतः भवति मनुष्यस्य सुखं न भवति इति अर्थः एवं रणाङ्गणे रिपोः शेषं ऋणशेषं गृहाङ्गणे एतद्वयं मनसः शल्यम् अनुधृत्य कुतः सुखम् तदुद्दीप्यतां युद्धोन्मादः अस्मद्बलेषु तस्मात् अस्मद्बलेषु अस्मत्सेनायां युद्ध उन्मादः नाम युद्धविषये उत्साहः दीप्यताम् इतोपि वर्ध्यताम् इति अमात्यवर विस्मृतं मया अपि प्रसारितानि चारचक्षूंषि प्रष्टुम् अहं विस्मृतवान् किं विस्मृतवान् चारचक्षूंषि प्रसारितानि किं चारचक्षूंषि नाम चारः इत्येव अर्थः अर्थात् चाराः प्रेषिताः वा सर्वत्र इति अथ किं महाराज आम् निश्चयेन प्रेषिताः एव इति इदानीं चारः प्रविशति कश्चित् चारः आगच्छति जयतु जयतु महाराजः इति वदति वृषपर्व अये चारः वचने एव समागतः शतायुः भव का नाम वार्ता चारः इति अहं चारः प्रसारिताः वा इति अहं यदा पृष्टवान् तदा एव साक्षात् चारः प्रविशति वदामः किल नूर् आयुस् भवतः भवति यतः आयुशतं शतायुः भव भवान् इति आशीर्वादं ददाति का वार्ता इति पृच्छति अस्ति एव अस्ति महाराज महान् विशेषः चारः इदानीं वदति महान् विशेषः अस्ति एव महाराज वृषपर्व कः कः उच्यताम् अनिमिषाणाम् अमितमिषाणां प्रयोगः उच्यताम् अनिमिषाः अनिमिषाः इत्युक्ते देवाः इति अनिमिषाणां देवानां निर्निमिषाः अनिमिषाः देवाः तेषां नेत्रस्पन्दनमेव न भवति इति कारणेन निर्निमेषाः नो चेत् अनिमिषाः इति देवाः अनिमिषाणाम् अमितमिषाणां प्रयोगः, मिष इत्युक्ते कपटम् इति अर्थः, अमितमिष इत्युक्ते अत्यधिककपटः, सीमाम् अतिरिच्य कपटकार्यं तेषां प्रयोगः उच्यताम्। देवानां कपटप्रयोगः कः इति भवान् वदतु इति अर्थः। अनिमिषाणां देवानाम् अमितमिषाणां प्रयोगः उच्यताम् इति, निमिषाः अनिमिषाः इति अत्रापि शब्दालङ्कारस्य प्रयोगः कृतः ग्रन्थकर्त्रा इति ज्ञायते। अनिमिषाणाम् अमितमिषाणाम् अत्यधिककपटकार्याणां प्रयोगः कः इति उच्यताम्। चारः, महाराज स्वपक्षे अपि अनुमीयते किञ्चित्, स्वपक्षे नाम अस्माकं पक्षे, असुराणां पक्षे किञ्चित् अनुमीयते, किमपि अनुमानः क्रियते, कोऽपि अनुमानः क्रियते, किम् अनुमानः नाम काचित् ऊहा क्रियते अस्माकं बले, कथं कुत्र इति वृषपर्व पृच्छति। चारः, आचार्य शुक्रस्य उटजे, शुक्रस्य उटजे वृषपर्व, आचार्यस्य इति तस्य आश्चर्यम्। चारः, आम् अस्ति किल सकलसद्गुणनिलयः ब्रह्मचर्यनियम अनुचर्या समुपात्ततेजोराशिः उदूढयौवनः विनयशीलः कचो नाम पुत्रको गिराम्पत्युः। अस्ति किल कचो नाम गिराम्पत्युः पुत्रकः अस्ति किल इति अमात्य चारः वदति, क्षम्यतां, चारः वदति, गिराम्पत्युः नाम वाचां पतिः, गिराम्पतिः अस्ति बृहस्पतिः, बृहस्पतेः पुत्रकः, पुत्रः पुत्रकः पुत्रः, कचो नाम अस्ति किल, कचः नाम बृहस्पतेः पुत्रः अस्ति किल इति वदति। कीदृशः कचः अस्ति इति अन्यानि पदानि तस्य विशेषणानि सन्ति। सकलसद्गुणनिलयः अर्थः
सद्गुणानां,
सकलानामपि सद्गुणानाम् आलयः अस्ति, निकेतनमस्ति, सः तादृशः कचः। ब्रह्मचर्यनियम अनुचर्या समुपात्ततेजोराजिः, ब्रह्मचर्यनियमान् सम्यक् पालितवान्, ब्रह्मचर्यनियमानाम् अनुचर्यया पालनेन समुपात्ततेजोराशिः नाम आर्जित तेजोराशिः अस्ति तस्मिन्, तादृशः। उदूढयौवनः, इदानीमेव यौवनस्य अङ्कुरः दृश्यते, पूर्वमपि दृष्टवन्तः वयम्। उन्मिषद्यौवनाङ्कुरः, उन्मिषद्यौवनाङ्कुरः इति शुक्राचार्यः कथं दृष्ट्वा वदति तृतीय अङ्के। तथा उदूढयौवनः, अचिरात् प्राप्तयौवनः, इदानीमेव यौवनः प्राप्तः, अदूढयौवनः, उदूढयौवनः, विनयशीलः, विनयान्वितः, विनयभावं दृश्यते, तादृशः कचो नाम गिराम्पत्युः अस्ति किल इति। एवं कति विशेषणानि, चत्वारि विशेषणानि, सकलसद्गुणनिलयः ब्रह्मचर्यनियम अनुचर्या समुपात्ततेजोराशिः कचः, उदूढयौवनः कचः, विनयशीलः कचः इति चत्वारि विशेषणानि तस्य। वृषपर्व, अस्तु नाम किं नश्चिन्नं खलु त्रिदिवालये, वृषपर्व वदति किं नश्चिन्नम्, अस्माकं किं नष्टं, सः कचन त्रिदिवालये नाम देवालये एव अस्ति किल, सः बृहस्पतेः पुत्रः अतः तत्रैव तस्य वासः अपि स्यात् इति कृत्वा वदति, त्रिदिवालये एव अस्ति किल, अस्माकं किं नश्चिन्नं, किं नष्टं, छिन्नम् इत्युक्ते अत्र नष्टम् इति अर्थः स्वीक्रियते, किं नश्चिन्नम्, अस्माकं किं नष्टं। चारः, न शुक्र उटजे, त्रिदिवालये न अस्ति इदानीं कचः, कुत्र अस्ति, शुक्र उटजे, शुक्रस्य आश्रमे अस्ति, शुक्रस्य उटजे, उटजः नाम अत्र आश्रमः, शुक्रस्य आश्रमे अस्ति। सङ्गीत अभ्यासव्याजेन शुक्रम् उपस्थाय तद्दुहितुः देवयानायाः मनः आकर्षति इव सः, सः कचः इदानीं कथमस्ति इत्युक्ते सङ्गीत अभ्यासव्याजेन, सङ्गीतविद्यां प्राप्तुं कपटकारणेन शुक्रम् उपस्थाय, शुक्रस्य समीपम् आगत्य तद्दुहितुः, तस्य दुहिता नाम देवयाना, दुहिता नाम पुत्री, तस्याः शुक्राचार्यस्य पुत्र्याः देवयानायाः मनः आकर्षति इव अस्ति इति वदति। एवम् एषः सङ्गीतम् अभ्यसितुम् आगतवान्, इदानीं शुक्राचार्यस्य पुत्र्याः मनः अपि आकर्षति इव दृश्यते किं नश्चिन्यं किं नः नाम अस्माकं किं नष्टं तेन इति पृच्छति वृषपर्व. क्रमशः आचार्यस्य अपि आकर्षति, न केवलं देवयानायाः मनः, आचार्यस्य शुक्राचार्यस्य मनः अपि सः मन्दम् आकर्षति इति चारः वदति. सः सुतां दास्यति किं नश्चिन्नम् आकर्षतु नाम सः किं करोति शुक्राचार्यः स्वपुत्रीं देवयानां तस्मै ददाति, ददातु किं नश्चिन्नम् अस्माकं किं नष्टं तस्मात् इति. अमात्यः महाराज सर्वमपि नश्चिन्नं, सर्वमपि इदानीम् अस्माकं नष्टमेव. कथमित्युक्ते शुक्राचार्यः मृतसञ्जीविनी सदक्षिणाकं कन्यादानं करिष्यति. यदा सः कन्यादानं करिष्यति स्वपुत्रीं देवयानां तस्मै कन्यादानरूपेण ददाति, तदा किं करोति मृतसञ्जीवनमन्त्रमपि सः दक्षिणारूपेण वरदक्षिणारूपेण दास्यति. स मृतसञ्जीविनी सदक्षिणाकं कन्यादानं करिष्यति, अतः तत्र दक्षिणा भवति मृतसञ्जीवनीमन्त्रम् इति. वृषपर्व इदानीम् अवगच्छति आहा कष्टम् आचार्येण न अन्वमीयत वा, आचार्येण सः न अनुमानं न कृतवान् वा इति. गूहितेङ्गितः कथम् अनुमीयते, गूहितेङ्गितः गूहित इङ्गितः नाम कचः वस्तुतः तस्य संस्कृतः तस्य उद्देशः तु मृतसञ्जीवनी मन्त्रप्राप्तिः एव, किन्तु तद् सः गोपयित्वा सङ्गीत अभ्यासम् इति कपटव्याजेनैव प्राप्तवान् अस्ति. अतः कचः गूहित इङ्गितज्ञः नाम तस्य उद्देशं सः गूहितवान् अस्ति. रहस्यं रहसि स्थापितवान् अस्ति तस्य आत्मनः शुक्राचार्यस्य आश्रम आगमनकारणं, वास्तविकं कारणं सः न उक्तवान्, वास्तविकं कारणं न उक्तवान् सः, असत्यम् उक्त्वा एव आगतवान्. अतः तादृशः कचः कथम् अनुमीयते आचार्येण, आचार्येण तादृशं कचम् अनुमातुं न शक्यम्. वृषपर्व न तथा मन्तव्यं, पुरा कपटवटुः वामनः आचार्येण अनुमितः. वृषपर्व इदानीं पुराणकथां स्मरति, किं स्मरति, कपटवटुः वामनः आचार्येण अनुमितः. न तथा मन्तव्यम्, आचार्येण अनुमातुं न शक्यम् इति न, सः शक्नोति कारणं वामनः वामन अवतारः आचार्येण अनुमितः, कपटवटुः वामनः तेन अनुमितः. तत्र का कथा,
विष्णुः पूर्वं बलिं जेतुं वामनरूपेण आगतवान्, तं शुक्राचार्यः
साक्षात् सः विष्णुः एव इति अवगतवान् इति. अतः विष्णोः वामनरूपकपटवेषं सः अनुमातुं शक्तवान् शुक्राचार्यः वामनावतारसमये. अतः इदानीमपि शुक्राचार्येण शक्यते एव, न शक्यम् इति न इति वदति. तदा अमात्यः वदति अद्य नु शुक्रमौढ्यकालः सम्प्राप्तः. शुक्रस्य वयः तु अधिकं जातम् अस्ति, अतः तस्य मौढ्यकालः, मूढस्य भावं मौढ्यं मूर्खत्वं, तस्य इदानीं बुद्धिहीनः जायमानः स्यात् इति. शुक्रस्य मौढ्यकालः सम्प्राप्तः, मूढत्वं सम्प्राप्तं, स्टुपिडिटि इति वदामः किल. महाराज मृतसञ्जीवनी विद्यासङ्ग्रहणाय गीष्पतीकृतः प्रयोगो अयम् इति न सन्देहः. मृतसञ्जीवनी विद्यासङ्ग्रहाय, मृतसञ्जीवनी मन्त्रं ज्ञातुं सङ्ग्रहीतुं गीष्पतीकृतः प्रयोगः, गीष्पतिः इत्युक्ते
बृहस्पति,
बृहस्पतिना अयं प्रयोगः कृतः, बृहस्पतिः एव एतादृशं कृतवान् अस्ति इति न सन्देहः, सन्देहं विना वक्तुं शक्यते इति अमात्यस्य अभिप्रायं वदति. वृषपर्व अमात्य तदद्य किं क्रियतां, चिन्त्य उपायं सुरगुरोर्मौढ्यं प्रभवति. उपायं चिन्तय, चिन्तय उपायम्, उपायं चिन्तय येन उपायेन सुरगुरोः मौढ्यं प्रभवति. इदानीं तस्य अपि यथा मौढ्यकालः भवति तादृशः कोऽपि उपायः भवता चिन्त्यताम् इति अमात्यं वदति वृषपर्व. सुरगुरोः नाम बृहस्पतेः अपि मौढ्यं यथा भवति भवति तथा कोऽपि उपायः क्रियताम्। अमात्यः मन्त्रणं नाटयित्वा स शिरःकम्पं, सः किमपि चिन्तयित्वा वदति, चिन्तितं महाराज चिन्तितं, कर्णे वदामि अनुमन्यताम्। अहं स्पष्टं न वदामि, भवतः कर्णे अहं वदामि, कृपया मम अनुमतिं ददातु इति कर्णे वदति। अमात्यः किमपि उपायं शुक्राचार्यस्य कर्णे वदति, वृषपर्वणः कर्णे वदति। तं श्रुत्वा वृषपर्वा वदति साध्वमात्य साधु उत्तम। दग्धमूलं निलिम्पानां
दग्धमूलं निलिम्पानां
मायावृक्षं पुनः पुनः
मायावृक्षं पुनः पुनः
वासवस्वसहस्राक्षी
वासवस्वसहस्राक्षी
निःसृताश्रैर्निषिञ्चतु
निःसृताश्रैर्निषिञ्चतु।
दग्धमूलं निलिम्पानां मायावृक्षं पुनः पुनः वासवः स्वसहस्र अक्षिनिस्तृत अस्रैः निषिञ्चतु। वासवः निषिञ्चतु, वासवः नाम इन्द्रः। अस्मिन् अङ्के इन्द्रस्य बहूनि पदानि आगतानि इति मन्ये। वासवः इन्द्रः निषिञ्चतु, निषिञ्चतु नाम सेचयतु इति अर्थः, सेचनं करोतु। वासवः निषिञ्चतु, तदेव दग्धमूलं मायावृक्षं निषिञ्चतु। इन्द्रः मायावृक्षं मायावृक्षस्य सेचनं करोतु इति अर्थः। सिञ्चतु मायावृक्षं, सिञ्चतु नाम वाटर्, वाटरिङ्ग् द मायावृक्षं। किं सिञ्चतु? मायावृक्षं निषिञ्चतु, त्रणी उपसर्गेण निषिञ्चतु इति अभवत्, नो चेत् उपसर्गं विना सिञ्चतु इत्येव क्रिया। वासवः इन्द्रः मायावृक्षं निषिञ्चतु, मायावृक्षं सिञ्चतु, लेट् हिम् वाटर् द मायावृक्षम् इति। केषां मायावृक्षं? निलिम्पानां, निलिम्पः इति देवः इति अर्थः। देवानां मायावृक्षं, माया इति वृक्षं वासवः इन्द्रः निषिञ्चतु। कीदृशं वृक्षम् अस्ति इत्युक्ते दग्धमूलं मायावृक्षं। सो अनेन श्लोकेन कोऽपि उपायः क्रियते, येन उपायेन सर्वे सुराः वा नो चेत् कचः वा दग्धः भवेत् इति कृत्वा। सो निलिम्पानां देवानां दग्धमूलं, दग्धः मूलः, यस्य वृक्षस्य मूलः दग्धः भवति सः वृक्षः दग्धमूलः वृक्षः। नाम दग्धमूलम् इत्युक्ते उत्पाटितमूलं, यस्य मूलम् उत्पाटितः भवति सः दग्धमूलं वृक्षं भवति। दग्धमूलः मूलं मायावृक्षं वासवः सिञ्चतु। कथं सिञ्चतु? इन्द्रस्य कति अक्षीणि सन्ति?
सहस्र
नेत्राणि सन्ति। अत्र सहस्राक्षः इत्यपि इन्द्रस्य नाम कुत्रापि दृष्टवन्तः पूर्वं वयं। स्वसहस्र अक्षि निःसृत अस्रैः, अस्रम् इत्युक्ते अश्रु नाम नेत्रजलम् इति अर्थः। अश्रुभिः निषिञ्चतु, अश्रूणि कुतः पतन्ति इत्युक्ते स्वसहस्र अक्षि निःसृत अस्रैः। इन्द्रस्य स्वस्य सहस्र अक्षीणि सन्ति, तेभ्यः यानि अश्रूणि निस्सरन्ति तैः अश्रुबिन्दुभिः वासवः मायावृक्षं सिञ्चतु इति। नाम इन्द्रः बहु रोदनं कुर्यात् इति अर्थः। इन्द्रः रोदनं करिष्यति, रुदिष्यति इन्द्रः। इन्द्रः कदा रोदनं करोति? यदा स्व पक्षे सुराः दग्धाः वा मारिताः वा भवन्ति तदा इन्द्रः रोदनं करिष्यति इति कृत्वा एषः वदति। निश्चयेन इन्द्रः स्वनेत्रेभ्यः पतद्भिः अश्रुभिः सः दग्धमूलं मायावृक्षं, देवानां मायावृक्षं सः सिञ्चतु इति वृषपर्व उक्त्वा अत्र चतुर्थः अङ्कः समाप्यते इति निष्क्रान्ताः सर्वे। वृषपर्व, अमात्यः, चाराः सर्वे
रङ्गमञ्चात्
बहिर्गच्छन्ति इति।